एष रेडियो नेपालः। सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तोत्री रत्नावली शर्मा। राष्ट्रपतिना रामचन्द्र पौडेलेन संघीय संसदः द्वाभ्यामेव सदनाभ्याम् पारितीकृत्य प्रस्तुतानि पञ्च विधेयकानि प्रमाणीकृतानि वर्तन्ते। राष्ट्रपतेः कार्यालयस्य प्रवक्त्र्या शैलजा रेग्मी भट्टराई इत्यनया ह्य विज्ञप्तिम् प्रकाश्य प्रमाणीकरणाय प्रस्तुतानि विधेयकानि संविधानस्य अनुसारेण राष्ट्रपतिना प्रमाणीकृतानि वर्तन्ते इति ज्ञापितमस्ति। प्रमाणीकृतेषु विधेयकेषु सुशासन प्रवर्धन सार्वजनिक सेवा प्रवाह सम्बद्धान् कतिचिद् नेपालाधिनियमान् संशोधयितुम् निर्मितम् विधेयकम्, सहकारी सम्बद्धान् कतिचिद् नेपालाधिनियमान् संशोधयितुम् निर्मितम् विधेयकम्, आर्थिक कार्यविधि वित्तीयोत्तरदायित्व सम्बद्धम् षट्सप्तत्युत्तर द्विसहस्रतम विक्रम वर्षीयम् अधिनियमम् संशोधयितुम् निर्मितम् विधेयकम्, आर्थिक व्यावसायिक वातावरण सुधार निवेशाभिवृद्धि सम्बद्धान् कतिचिद् नेपालाधिनियमान् संशोधयितुम् निर्मितम् विधेयकम्, नैजीकरण सम्बद्धम् पञ्चाशदधिक द्विसहस्रतम विक्रम वर्षीयमधिनियमम् संशोधयितुम् निर्मितम् विधेयकम् च वर्तन्ते। एतानि विधेयकानि संघीय संसदः द्वाभ्यामेव सदनाभ्याम् पारितीकृतानि अवर्तन्त। प्रधानमन्त्री केपी शर्मा ओली निगदति तिनकुने स्थाने चैत्र मासस्य पञ्चदशे दिवसे सम्भूतायाम् घटनायाम् संलग्नैः जनैः उन्मुक्तिः न लप्स्यते। संघीय संसदः द्वयोः सदनयोः पृथक् पृथक् उपवेशयोः ह्य सम्बोधनम् विदधानः प्रधानमन्त्री ओली अस्यैव चैत्र मासस्य पञ्चदशे दिवसे पूर्वराजस्य समर्थकानाम् आन्दोलनस्य क्रमे सम्भूतायाम् घटनायाम् संलग्नेषु केनापि जनेन उन्मुक्ति न लप्स्यते इति अगदत्। प्रधानमन्त्री ओली घटनायाम् संलग्नानाम् अनुसन्धानम् जायमानमस्तीति चर्चयन् दोषिणो जनः दण्डभाजः भविष्यन्ति इति समस्पष्टयत्। प्रधानमन्त्री ओली एकस्य कर्मचारिणः विषये उत्थापितेन प्रश्नेन सदनावरोधात् महत्वपूर्णेषु संसदीयेषु कर्मसु व्यवधानम् सम्भूतमिति अभाषत। प्रधानमन्त्री ओली वर्तमान संविधानस्य महता संघर्षेण प्राप्तानाम् जनाधिकाराणाम् संघीय गणतन्त्रस्य च रक्षायाः सफलीक्रियान्वयनस्य च अयम् समयोऽस्तीत्यतः समग्रेण सदनेन एकबद्धेन भाव्यमिति उदैरयत्। प्रतिनिधिसभायाः संवैधानिक परिषद कार्यै कर्तव्यै अधिकारै कार्यविधिभिश्च सम्बद्धम् प्रथम संशोधन विधेयकम् सर्वसम्मत्या पारितीकृतमस्ति। एतत्पूर्वम् प्रधानमन्त्रिणः केपी शर्मा ओलिनः पक्षतः संचार सूचना प्रविधि मन्त्रिणा पृथ्वी सुब्बा गुरूङ इत्यनेन राज्यव्यवस्था सुशासन समितेः प्रतिवेदनेन सहितम् संवैधानिक परिषदः कार्यकर्तव्यैः अधिकारैः कार्यविधिभिश्च सह सम्बद्धम् उनाशीत्युत्तर द्विसहस्रतम विक्रम वर्षीयम् प्रथम संशोधन विधेयकमाधृत्य विमृश्यतामिति प्रस्तावः प्रस्तुतः आसीत्। अस्य विधेयकस्य पारितीकरणानन्तरम् संवैधानिक निकायानाम् पदाधिकारिणाम् नियुक्तेः मार्ग प्रशस्तीभूतोऽस्ति। तत्पूर्वम् प्रतिनिधिसभायाः ह्यस्तनोपवेशे सांसदः गत पञ्चदशे दिवसे काष्ठमण्डपस्य तिनकुने स्थाने सम्भूतायाः घटनायाः विषये ध्यानम् आकर्षयन्तः घटनायाः दोषिणः दण्डयितुम् याचनाम् विहितवन्तः। उपवेशे नेपाली कांग्रेस दलस्य महामन्त्री विश्वप्रकाश शर्मा, नेकपा एमाले दलस्य सचिवः योगेश भट्टराई, नेकपा माओवादी केन्द्रस्य नेत्री रेखा शर्मा, राष्ट्रिय स्वतन्त्र दलस्य डोल प्रसाद अर्यालः, राष्ट्रिय प्रजातन्त्र दलस्य अध्यक्ष राजेन्द्र लिङ्गदेन च धारणाम् उपस्थापयन्तः। उपवेशे विधि न्याय संसदीय विषय मन्त्रिणा अजय कुमार चौरसिया अभिधेन राष्ट्रिय सभायाम् उत्पन्नम् नेपाल विधि व्यवसायी परिषद सम्बद्धम् एतत् विक्रम वर्षीयम् द्वितीय संशोधन विधेयकमाधृत्य विचार्यतामिति निगद्य प्रस्तुतः प्रस्तावः सर्वसम्मत्या स्वीकृतः आसीत्। एवमेव उपवेशेन गृहमन्त्रिणा रमेश लेखकेन प्रस्तुतम् नागरिकता सम्बद्धम् एतत् विक्रम वर्षीयम् द्वितीय संशोधन विधेयकम्, उद्योग वाणिज्यापूर्ति मन्त्रिणा दामोदर भण्डारिणा प्रस्तुतम् आयात निर्यात नियमन सम्बद्धम् एतत् विक्रम वर्षीयम् विधेयकम्, ऊर्जो जलस्रोत सेचन मन्त्रिणा दीपक खड्का विधेयेन प्रस्तुतम् नवीकरणीयोर्जा दक्षता सम्बद्धम् एतत् विक्रम वर्षीयम् विधेयकम् च प्रकरणगत विमर्शनाय सम्बद्ध समितौ प्रेषितानि सन्ति। प्रधानमन्त्री केपी शर्मा ओली अद्यतः जायमानस्य थाईल्याण्ड देशस्य औपचारिक भ्रमणे बिम्स्टेक संघटनस्य शिखर सम्मेलने च स्वस्य सहभागिताया विषयं संसदि ज्ञापितवान् अस्ति। प्रतिनिधिसभाया राष्ट्रियसभायाश्च पृथक् पृथक् ह्य उपविष्टयो उपवेशयो प्रधानमन्त्री ओली नेपालस्य निकटतम प्रतिवेशिभ्यां भिन्नानां देशानां भ्रमणे मूल मार्गत्वेन विद्यमानस्य बैंकक नगरस्य अधुनावधि औपचारिकं भ्रमणं न जातमित्यतः थाईल्याण्ड देशस्य भ्रमणमिदं महत्वपूर्णं भविष्यति इति अभाषत। भ्रमणस्य क्रमे थाईल्याण्ड देशस्य नरेशेन तत्रत्य समकक्षिणा प्रधानमन्त्रिणा च सह मेलवार्ता भविष्यति। भ्रमणस्य क्रमे पर्यटनस्य संस्कृतेश्च विषययोः द्वयोः महत्वपूर्णयोः संविदापत्रयोः हस्ताक्षराणि भविष्यन्ति इति च प्रधानमन्त्री ओली अज्ञापयत्। प्रधानमन्त्री ओली बिम्स्टेक शिखर सम्मेलनं चैत्र मासस्य द्वाविंशे दिवसे सम्बोधयिष्यति। तदनु अन्येषां देशानां नेतृभिः सह मेलवार्तापि भविष्यति इति च अज्ञापयत्। प्रधानमन्त्री केपी शर्मा ओली अस्यैव चैत्रमासस्य पञ्चदशे दिवसे तिनकुने स्थाने विहितायां घटनायां मृतस्य पत्रकारस्य सुरेश रजकस्य परिवाराय सर्वकारेण आवश्यक सहयोग विधीयते इति प्रतिबद्धतां दापितवान् अस्ति। बालुवाटारवर्तिने प्रधानमन्त्री निवासे हि विहिते मेलने प्रधानमन्त्री ओली मृतकस्य दाहसंस्काराय परिवारम् अनुरुन्धानः सुरेशस्य पत्नी सुजन इत्यस्य मृत्युपार्जनादि व्यवस्थायै सर्वकारेण ध्यानं प्रदास्यते इति समाश्वासयत्। तदवसरे प्रधानमन्त्रिणा ओलिना अराजकसमूहेन विहितस्य अग्निदाहस्य घटनायाः कारणेन त्यक्तप्राणं रजकं प्रति श्रद्धाञ्जलिम् अभिव्यज्य परिवारजनेषु समवेदना च प्रकटिता आसीत्। तदवधौ प्रधानमन्त्री ओली उक्त दुःखद घटनायाः अनुसन्धानं विधाय दोषिणां कठोरेण दण्डनस्य प्रक्रिया प्रारब्धास्ति इति च परिवारजनान् असूचयत्। नेपाल पत्रकार महासंघस्य समूहेन गृहमन्त्रिणे रमेश लेखकाय ध्यानाकर्षण पत्रम् अर्पितमस्ति। महासंघस्य महासचिवेन रामप्रसाद दाहालिन सहितानाम् अष्टानां जनानां संयुक्त समूहेन चैत्रस्य पञ्चदशे दिवसे तिनकुने स्थाने विहितस्य हिंसात्मक प्रदर्शनस्य क्रमे संचार माध्यमेषु संचारकर्मिषु च लक्ष्यीकृत्य प्रहार विहित इत्युक्त्वा सर्वकारेण घटनायाः सत्य तथ्य अन्वेष्य दोषिणां जनानाम् आवश्यक दण्डनाय गृहमन्त्रिणे लेखकाय ध्यानाकर्षण पत्रम् अर्पितमस्ति।